इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। केन्द्रीय गृहमन्त्री अमितशाहः अद्य समाश्वासितवान् यत् विधानसभा निर्वाचनानन्तरं जम्मूकश्मीर प्रदेशाय राज्यपदं प्रदास्यते। मणिपुरराज्ये भुशुण्डिका प्रहारेषु षड् जनाः मृत्युमुपगताः। तेलंगाना सर्वकारेण राज्यस्य त्रयस्त्रिंशत्सु एकोनत्रिंशत् जनपदाः जलौघ प्रभावितत्वेन समुद्घोषिताः। अशेषे हि देशे अद्यारभ्य गणेश चतुर्थ्याः उत्सवः अतीव हर्षोल्लासेन समारब्धः। अवसरेऽस्मिन् राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च देशवासिभ्यः शुभकामनाः अयच्छन्। अपि च पेरिस पैरालम्पिक क्रीडाकुम्भस्य अवशिष्टे दिनद्वये भारतेन पदकानां संख्या त्रिंशत् यावत् कर्तुं प्रयतिष्यते। अथ वार्ताः विशदीकृत्य। भाजपेति दलस्य वरिष्ठनेता केन्द्रीय गृहमन्त्री च अमितशाहः अद्य समाश्वासितवान् यत् विधानसभा निर्वाचनस्य अनन्तरं जम्मूकश्मीर प्रदेशाय राज्यपदं प्रदास्यति। जम्मूनगरे एकं सार्वजनिकोपवेशनं सम्बोधयन् श्रीशाहः स्पष्टीकृतवान् यत् जम्मूकश्मीरे आगामि विधानसभा निर्वाचनम् ऐतिह्यत्वेनास्ति, यतोहि मोदी प्रशासनद्वारा अनुच्छेदस्य 70+300 इत्येतस्य निरसनानन्तरं प्रथमवारं संविधानस्य अन्तर्गतं भवति इदं निर्वाचनम्। ध्येयं वर्तते यत् श्रीशाहः निर्वाचन प्रचाराय जम्मूकश्मीरस्य द्विदिवसीय यात्रायामस्ति। मणिपुरे विभिन्नस्थलेषु प्रातःकालादेव भुशुण्डिका प्रहारः जायमानः अस्ति। एतस्मिन् प्रहारे षड् जनाः मृत्युमुपगताः, बहवश्च व्रणिताः समभवन्। अद्य प्रातः जीरीबाम जनपदे कश्चन नागरिकः सुप्तावस्थायामेव मृत्युं प्राप्तवान्। आतंकवादिभिः पीडितस्य शिरसि भुशुण्डिकाघातो विहितः। तेलंगाना सर्वकारेण राज्यस्य 33 एकोनत्रिंशत् जनपदाः जलौघ प्रभावितत्वेन समुद्घोषिताः। जलौघ प्रभावितेभ्यः जनपदेभ्यः त्रिकोटिरूप्यकाणामपि सहायता राज्यसर्वकारेण समुद्घोषिता। अतः पूर्वमपि चत्वारः जनपदाः जलौघ प्रभावितत्वेन समुद्घोषिताः आसन्। जलौघ प्रभावितक्षेत्रेषु आपदुद्धार कार्याणि जायमानानि सन्ति। रेवन्थरेड्डी इत्यमुना हैदराबादे एकं उच्चस्तरीय समीक्षोपवेशनमपि विहितम्। उपवेशनानन्तरं वार्ताहरैः सह संवादे राज्यस्य मुख्य सचिवेन शांता कुमारी इत्यनया प्रोक्तं यत् गतमासस्य 31 दिनांकादारभ्य अस्य मासस्य 3 दिनांकं यावत् समंकित वर्षायाः आधारेण इयं घोषणा कृता। तया अग्रे प्रोदीरितं यत् राज्ये वर्षाकारणात् मृतकानां संख्या संवर्ध्य 31 समभवत्। राज्यसर्वकारेण हानेः अपेक्षित प्रारूप निर्माणार्थं जनपदस्तरीयः विशेषाधिकारी अपि नियोजितः। अशेषे हि देशे अद्य गणेश चतुर्थ्याः उत्सवः अतीव श्रद्धया आमान्यते। अयं दिवसः भगवतः श्रीगणेशस्य जन्मदिवसस्य प्रतीकः अस्ति। अस्मिन् दिने जनाः स्वगृहेषु भगवतः श्रीगणेशस्य मृत्तिकया विनिर्मित मूर्तिं संस्थाप्य पूजयन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखडः, प्रधानमन्त्री नरेन्द्रमोदी च अवसरेऽस्मिन् जनेभ्यः शुभकामनाः प्रदत्तवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः सामाजिकान्तर्जालिक सन्देशे प्रोक्तवती यत् अयम् उत्सवः देशस्य विविधभागेषु सामूहिकोल्लासेन सह समायोज्यते, सहैव अयम् उत्सवः सामाजिकोर्जायाः सुन्दरम् उदाहरणमपि प्रस्तौति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् शिक्षकाः राष्ट्राय विशिष्टसेवां प्रददति, अपि च विकसितभारताय युवनिर्माणस्य कर्तव्यं तेषां हस्ते एव निहितमस्ति। ह्यः नवदिल्ल्यां निजावासे राष्ट्रियशिक्षकपुरस्कारप्राप्तैः शिक्षकैः सह सम्भाषमाणः श्रीमोदी व्यक्तीकृतवान् यत् विकसितभारताय योग्यनागरिकानां यूनाञ्च निर्माणाय सर्वेषां सहयोगः अपेक्षितो वर्तते। श्रीमोदिना निगदितं यत् शिक्षकाः भारतस्य विविधतायाः अवलोकनाय विद्यार्थिनः पर्यटनाय आनयेयुः। प्रधानमन्त्री शिक्षकान् निवेदितवान् यत् ते निज छात्रान् प्रचल्यमानायां देखो अपना देश पीपल्स च्वाइस इत्येतस्यां प्रतियोगितायां भागग्रहणाय प्रेरणां ददतु।
देखो अपना देश ऑनलाइन रैंकिंग चल रहा है, लोग वोट कर रहे हैं और उसमें हमारी कोशिश है कि उस राज्य के लोग वोट करके तय करके हमारे राज्य में ये नंबर वन पर चीज है जो देखने जैसी है। योजनाबद्ध तरीके से वहां जाए, रात्रि को वहां मुकाम करें तो उस स्थान के लोगों को लगेगा भाई अब रोजगार की संभावनाएं बनेगी, तो होम स्टे बनने लग जाएंगे, ऑटो रिक्शा वाले आ जाएंगे। यानी अगर हम सिर्फ स्कूल में बैठे बैठे तय करें तो इस देश में 100 टॉप डेस्टिनेशन टूरिज्म के हम 2 साल के अंदर तैयार कर सकते हैं।
केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा अद्य पटना नगरे अत्याधुनिकस्य पटना चिकित्सकीय महाविद्यालयस्य चिकित्सालयस्य च निर्माण कार्याणि समीक्षितवान्। अयं हि विश्वस्य द्वितीय बृहत्तमस्य चिकित्सालयस्य रूपेण विकसति। केन्द्र प्रशासनमपि अत्याधुनिकैः सौविध्यैः सह 45 शय्यायुतस्य चिकित्सालयस्य विकासाय बिहार प्रदेशाय सहाय्यं प्रददाति। एतदतिरिच्य श्रीनड्डा दरभंगा मुजफ्फरपुरयोः द्वयोः अत्याधुनिक सौविध्य युतयोः चिकित्सालयोः अपि उद्घाटनं विधास्यति। इतः पूर्वं श्रीनड्डा पटना नगरे तख्त श्रीहरिमंदिर साहिब इत्येतस्य भ्रमणं पूजार्चनां च कृतवान्। केन्द्रीय सूचना प्रसारण मंत्री अश्विनी वैष्णवः प्रतिपादितवान् यत् टोक्यो नगरे जापान एक्सटर्नल ट्रेंड ऑर्गेनाइजेशन इत्येतस्याः संस्थायाः अध्यक्षेण सुसुमु काटाओवा इत्यमुना साकं गुणवत्तायुतं उपवेशनं संजातम्। एकस्मिन् सामाजिक संचार संदेश पटले श्रीवैष्णवः निगदितवान् यत् उपवेशनमिदं द्विपक्षीय व्यापार निवेश अर्थव्यवस्था पूरक विषयेषु आधारितमस्ति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य उत्तरप्रदेशस्य गोरखपुरे सैनिक विद्यालयस्य उद्घाटनं विहितवान्। अस्मिन् अवसरे उपराष्ट्रपतिः उक्तवान् यत् शिक्षा एव माध्यमः अस्ति येन हि परिवर्तनम् आनयति तथा च शिक्षा एव समाजात् दुराचारान् च उन्मूलयति। असौ अवदत् यत् सः गोरखपुर सैनिक विद्यालयम् आगन्तुम् हर्षितो वर्तते यतो हि सः स्वयमेव सैनिक विद्यालयस्य चित्तौड़गढ़ इत्यस्य पूर्व विद्यार्थी अस्ति। अत्रावसरे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः स्वस्य भाषणे उक्तवान् यत् समीपस्थे नेपालदेशे पश्चिम बिहार प्रदेशे पूर्वांचल प्रदेशे च निवसतां प्रायः 3 कोटि जनानां कृते गोरखपुरं शिक्षा स्वास्थ्य सौकर्याणां च केन्द्रम् अस्ति। अयं सैनिक विद्यालयः अस्य प्रदेशस्य शैक्षणिक परिदृश्ये अपि महत्वपूर्णां भूमिकां निर्वहति। अवधेयं वर्तते यत् गोरखपुर सैनिक विद्यालयः पूर्वीय उत्तर प्रदेशस्य प्रथमः सैनिक विद्यालयः, उत्तर प्रदेश सैनिक विद्यालय समाजेन संचालितः द्वितीयः सैनिक विद्यालयः च अस्ति। पश्चिम वंगस्य राज्यपालः सीवी आनंद बोसः अस्य वर्षस्य अपराजिता महिला बाल पश्चिम वंगस्य आपराधिक विधि संशोधनम् विधेयकम् इतीदं राष्ट्रपतये द्रौपदी मुर्मू इत्यस्यै प्रेषितवान्, यस्मिन् अनेकाः न्यूनताः सन्ति इत्यपि सूचितवान्। गतमासस्य 9 दिनांके कोलकातायाः आरजीकर चिकित्सालये प्रशिक्षवः एकस्याः चिकित्सिकायाः बलात्कार हत्यायाः च अनन्तरं राज्य विधानसभया एतत् विधेयकं पारितम्। यदि बलात्कारस्य अपराधिकाणां क्रियायाः परिणामेन पीडितायाः मृत्युः भवति तर्हि तेषां कृते मृत्युदण्ड विधेयत् इति विधेयकं प्रार्थयति। गतरात्रौ राज्यपालः सामाजिक माध्यमेषु एकस्मिन् सन्देशे अलिखत् यत् विधेयकं त्वरितमेव निर्मितम् अस्ति इति। पेरिस पैरालम्पिक क्रीडाकुम्भे भारतेन 27 पदकानि अधिगतानि, येषु 6 सुवर्णपदकानि, 9 रजतपदकानि, 12 कांस्यपदकानि भारतस्य स्यूते अन्तर्निहितानि। अपरत्र नैके क्रीडकाः विविधासु प्रतिस्पर्धासु द्वन्द्वाय तत्पराः सन्ति। एकवारं पुनः मुख्य वार्ताः। केन्द्रीय गृहमन्त्री अमित शाहः अद्य समाश्वासितवान् यत् विधानसभा निर्वाचनानन्तरं जम्मू कश्मीर प्रदेशाय राज्यपदं प्रदास्यते। मणिपुरराज्ये भुशुण्डिका प्रहारेषु 6 जनाः मृत्युम् उपगताः। तेलंगाना सर्वकारेण राज्यस्य 33 जनपदाः जलौघ प्रभावितत्वेन समुद्घोषिताः। इति वार्ताः।